सप्तमम अंबिका गीतम सेवतपातकशमनम दैवम मानसवांचितफलदम दैवम सज्जनरक्षणचतुरम दैवम दुर्जनमर्दनपरुषम दैवम भास्करबिंबे दीप्तम दैवम लोचन मध्ये सुप्तं दैवं सितकरमण्डलगुप्तं दैवं त्रिगुणितभुवनव्याप्तं दैवं बहुशतचेटीसहितं दैवं रेणुशमष्ट्याविहितं दैवं अम्बरसौदेनीतं दैवं भैरववदनाभीतं दैवं असुरुचिपद्याभूतं दैवं वसुरुद्राकैर्गीतं दैवं क्षितिचलशुचिशुप्रोक्तं दैवं शितमतिभिस्समधीतं दैवम् मधुहृदयानां सौम्यं दैवं प्रियरूपाणां रम्यं दैवं तत्त्वज्ञानं विश्वं दैवं गुणविरुचीनां शून्यं दैवं चालकमवनेशक्त्वा दैवं शम्पाद्वारा दृश्यं दैवं दौद्रीमनुवरवाच्यं दैवं विदधद्विनतमशोच्यं दैवं शैले शैले विहर दैवं विपिने विपिने विचर दैवं ख्यात् ग्रामे ग्रामे ख्यातं दैवं नगरे नगरे प्रतिथं दैवं परितो व्योम्नि निराकृतिदैवं स्वर्गे पौलोमयाकृतिदैवं हिमवति गौरीरूपं दैवं तनुषु प्राणाकारं दैवम् अर्धं सुरगिरिधनुषो दैवं भुवनत्रियतय पूर्णं दैवं हृदि भूतानां किञ्चित् दैवं तणुवन्मनसि प्ररुचं दैवं लज्जाभावो ललितं दैवं रसनाभावो भीमं दैवम् दृष्टौ दृष्टौ सूक्ष्मं दैवं विषये विषये स्थूलं दैवं स्तोत्रे स्तोत्रे मधुरं दैवं ध्याने ध्याने मधुक्रै दैवं नमने नमने वरदं दैवं चरिते चरिते पूतं दैवम् आकाशामलगात्रं दैवं तारारविशशिनेत्रं दैवं व्यापकवनश्वस्वसितं दैवं पारावारस्वेदं दैवं लीलानारीवेशं दैवं दिव्यहिरण्मयभूषं दैवं केषाञ्चित्कृतपोषं दैवं केषाञ्चित्कृतशोषं दैवं पोषविधाने शीतं दैवं शोषविधाने तपनं दैवं सर्गविधाने विकसदैवं प्रलयविधाने मीलदैवं सोमं पीत्वा पुष्टं दैवं द्विषतो हत्वा हृष्टं दैवं భ్రువన ప్రళయే శిష్టం దైవం సర్వ పదార్థోకృష్టం దైవం కోలాచారిషు మాధ్య దైవం సమయాచారిషు శాంతం దైవం యోగాచారిషు పీనం దైవం జ్ఞానాచారిషు లీనం దైవం జ్ఞానాచారిషు లీనం దైవం కామ విరోధీ కలత్రం దైవం గణపషడానన పుత్రం దైవం పాప విదారీ పవిత్రం దైవం జయతి ముని స్తుతి పాత్రం దైవం జయతి ముని స్తుతి పాత్రం దైవం జయతి ముని స్తుతి పాత్రం దైవం ఓం నమో భగవతే శ్రీరమణాయ.